अब तो ये तो किंचित अग्रे नयामः शकुंतला वदती येषः वातेरित पल्लवांगुडीभिः त्वरयतीव माम केसर वृक्षकः येषः केसर वृक्षकः केसरः इति कश्चन वृक्षः केसर वृक्षकः वातेरित पल्लव अंगुडीभिः वातेन ईरितानि यानि पल्लवानि ईरितानि प्रेरितानि चालितानि वातेन चालितैः पल्लवैः पल्लवाः एव अंगुलयः अंगुलयः अंगुलिः वातेरित पल्लवाङ्गुलिः माम् त्वरयतीव त्वरया मह्यं जलं ददातु त्वरया मह्यं जलं ददातु इति वदतीव वर्तते केसरवृक्षकः इति इत्युक्ते यदा वाचेन पल्लवानि इतस्ततः चलन्ति तत्र चलने शकुन्तला अनुभवति यत् एष माम् आह्वयति इत्युक्ते एक सहजस्नेहः यथा वृक्षैस्सह लताभिस्सह शकुन्तलायाः कश्चन विलक्षणः सहजस्नेहो वर्तते इति कविः अत्र वर्णयति एषः वातेरित पल्लव अङ्गुलीः त्वरयतीव माम् त्वरयतीव शीघ्रमागच्छ शीघ्रमागच्छ मत्सकाशमागच्छ इति आह्वयति इव वर्तते यावदेनं सम्भावयामि सम्भावनं नाम आनरि एक्चुअली दट् वर्ड् इस् वेरि गुड् इडियमेटिक् यूसेज् यदा भवन्तः गृहमागच्छति इति वदामि तर्हि यद्यहं भवतः गृहमागच्छामि तर्हि भवतः सम्भावनं जातम् अतः सम्भावनं नाम honoring somebody's request. So I will reciprocate. Varanta sambhavanam bhinna. Yavadenam sambhavayani. Priyam vada. Tatra gatva tena saha vrukshakena saha jalam dattvava samite gata. Etavata priyam vada vadati. Hala shakuntale atrayvatavan muhurtam tishtha. Ekshanam tatrayv tishtha. Na chala, na chala. Tataha itastataha nagachyatu. तत्रैव तिष्ठति एकक्षणं यावत् किमर्थं यावत् त्वया उपगतया लता सनाथ इव अयं केसरवृक्षकः यदा केसरवृक्षकस्य समीपे भवती गतवती तदा केसरवृक्षकस्य शोभा वर्धिता एकस्य वृक्षस्य शोभा कथं वर्धते कदा वर्धते लतया सह यदा तस्य संयोगो भवति वृक्षस्य लतया सह यदा संयोगो भवति मेलनं भवति तर्हि वृक्षस्य शोभा वर्धते भवती लता इव सुकुमारवती वर्तते अतः यदा भवती केसरवृक्षस्य समीपे गता ता सः केसरवृक्षकः लता सनाथ इव दृश्यते लतया सहित इव रमणीयः दृश्यते अतः कञ्चित् कालम् अहं तत् सौन्दर्यम् अनुभवितुम् इच्छामि तत्रैव मुहूर्तं तिष्ठ इति सा कथयति प्रतिभा अतः शकुन्तला अतः खलु प्रियं वदासि त्वं शकुन्तला काम्प्लिमेण्ट् करोति अतः खलु एतेनैव कारणेन खलु त्वां प्रियं वदां वदन्ति इत्युक्ते सर्वदा प्रियमेव भवति वदति सर्वमपि यथा प्रियं भवति तदेव सा वदति प्रियं वक्ति इति प्रियं वद अलुक्समासः प्रियवदा इति भवेत् प्रियं वदा इति अलुत्समासः अत्र वर्तते राजा एतन्मध्ये राजा वर्तते अस्ति खलु पश्चाद्भागे सः वदति प्रियमपि तथ्यमाह शकुन्तलां प्रियं वद प्रियमपि तथ्यमाह शकुन्तला वयं किरातार्जुनीये पठितवन्तः यत् प्रियं वचनं भवति तत् हितं न भवति सत्यं न भवति यत् सत्यं भवति तत् प्रायः प्रियं न भवति इति वयं तत्र विचारितवन्तः राजा अत एव वदति प्रियमपि यद्यपि प्रियं तथापि वास्तवमेव वदति तथ्यमाह शकुन्तला तथ्यमाह प्रियं वद वास्तवमेव उक्तवती कुतः अस्याः शकुन्तलायाः लतासारूप्यं शकुन्तलायां कथं वर्तते इति प्रतिपादयति अधरः किसलयरागः अस्याः शकुन्तलायाः अधरो नाम लोवर् लिप् उत्तरः नाम अप्पर् लिप् अधरः किसलयरागः किसलयः नाम पल्लवं पल्लवस्य रागः इव रागः यथा पल्लवस्य वर्णः भवति तादृश समान वर्णयुक्तः अधर प्रदेशः पल्लवम् नाम किसलयम् न्यू लीफ टेंडर लीफ पल्लव चिगुरता अधर किसलय राजः पल्लवी इति नाम तस्य कोमल विटपानुकारिणौ बाहु अतीव कोमलौ लतायाः विटपौ इव विद्यमानौ बाहु तर्हि पुष्पाणि कुत्र सन्ति इत्युक्ते कुसुममिव लोभनीयम् लोभनीयम् नाम यस्मिन् यस्य वस्तुनि विषये लोभः भवितुमर्हति इत्युक्ते यस्य वस्तुनः दर्शनमात्रेण इदं मे स्यात् लोभो नाम मम भवतु मम सकाशे धनं भवतु मम सकाशे गृहं भवतु मम सकाशे कार् भवति इति खलु लोभः यस्य पदार्थस्य दर्शनमात्रेण लोभः भवति लोभः सर्वेषां भवितुमर्हति अर्हार्थे ईयसुन् प्रत्ययः तादृशं लोभनीयं कुसुममिव लोभनीयम् कुसुमं सर्वदा लोभनीयं भवति यदा यदा वयं पुष्पाणि सुन्दराणि पश्यामः झटिति तत् छेदयित्वा शिखायां वा हस्ते वा पाकेट् मध्ये वा कोट् मध्ये वा स्थापयितुम् इच्छामः न कुर्मः तत् केवलं कर्तसीकारणात् कोपि न पश्यति चेत् कुर्मः कोपि द्रक्ष्यति सः टिकेट् दास्यति इति भयेन न कुर्मः इत्युक्ते लोभस्तु सहजः कुसुमं यदा पश्यामः इदं कुसुमं मे भवतु इति लोभः सहजः कुसुममिव लोभनीयं यौवनम् अङ्गेषु सन्नद्धम् एवमेव यौवनमपि तथा लोभनीयं वर्तते कुसुमसदृशं लोभनीयम् आकाङ्क्षणीयं यत् यौवनं वर्तते तत् अङ्गेषु सन्नद्धं सर्वेष्वपि अङ्गेषु शकुन्तलायां सन्नद्धम् अतः शकुन्तला नूनमेव लतारूपिणी वर्तते अतः यदा शकुन्तला केसरवृक्षस्य समीपं गतवती स्थितवती च तदानीं शकुन्तला संयोगेन केसरवृक्षकः इतोपि अतिशयेन शोभते अतः प्रियम्बदा वदति एकक्षणं तत्रैव तिष्ठ अनसूया हला शकुन्तले इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका एतावन्मध्ये अनसूया वदति इयम् एषा लता स्वयंवरवधूः एषा स्वयंवर लतायां स्वयंवरवधूत्वं स्वयंवरकन्यका सहकारस्य त्वया कृतनामधेया सहकारस्य स्वयंवरकन्यका सहकारवृक्षः लघु आम्रवृक्षस्य वरस्य वृक्षः पुंलिङ्गः वरः लता स्त्रीलिङ्गं वधूः स्वयंवरवधूः इत्युक्ते सहकारवृक्षः स्वयंवर वनज्योत्स्ना लतां स्वयं वनज्योत्स्ना लता सहकारवृक्षं कृतवती स्वयंवरः खलु स्त्रियः एव स्वयंवरं कुर्वन्ति एषा स्वयंवरवधूः सहकारवृक्षस्य किं नामधेय तस्य नामधेयं दत्तं यथा वयं पालित जन्तूनां नामानि दद्मः तथा वनज्योत्स्ना इति शकुन्तलया नामधेयं कृतं वर्तते तस्याः लतायाः एका वनज्योत्स्ना नवमालिका नवमालिका इति जातिः वनज्योत्स्ना इति नाम वनस्य ज्योत्स्ना वनस्य चन्द्रिकासदृशी एनां विस्मृतासि एनां लतां विस्मृतासि किं तस्याः सकाशे न गतवती जिड्जु फर्गे शकुन्तला तत् आत्मानं विस्मरिष्यामि यद्यहं एनां वनज्योत्स्नां विस्मरिष्यामि तर्हि अहम् आत्मानं विस्मरिष्यामि यदा अहम् आत्मानं विस्मरिष्यामि तदानीमेव वनज्योत्स्नां विस्मर्तुं प्रभवामि अतः कदाचिदपि अहं वनज्योत्स्नां विस्मर्तुं न शक्य इत्युक्ते एतद्द्वारा कालिदासस्य प्रकृते प्रकृतिचित्रणं प्रकृत्या सह अत्यन्तघनिष्ठसम्बन्धस्थापनं तेषु सहजव्यवहारकरणम् एतत् सर्वं किञ्चित् अतीवसुन्दरम् अतीव रुचिरं कालिदासस्य ప్రకృతౌ విద్యమానం స్నేహం దర్శయ. లిఖతి తు కాళిదాసః, అతః కాళిదాసః సర్వదా ప్రకృతేహే ప్రకృతౌ అతీవ స్నేహశీలీ వర్తతే. తదేవ న్యాచురల్ పోయెట్ ఇతి కథయంతి. యథా ఆంగ్లభాషాయాం వర్డ్స్వర్త్ న్యాచురల్ పోయెట్ భవతి, తద్వత్ కాళిదాసోపి న్యాచురల్ పోయెట్ ఇతి. ప్రకృత్యా సహ బహు ఆనందం అనుభవతి. ప్రకృతౌ విద్యమాన సర్వ పదార్థాన్ సమ్యక్ రూపేణ వర్ణయతి. ఏకత్ర తత్వ స్థలేషు క్వచిత్ సముద్రస్య గంభీరం వర్ణనం, క్వచిత్ సహ అనన్య సామాన్య కళత్ర వృత్తి ఇది కథయతి. క్వచిత్ కాళిదాస సముద్ర వర్ణన సమయే ఏకం వైచిత్ర్యం వదతి. అనన్య సామాన్య కళత్ర వృత్తి ఇచ్చితే కళత్రేషు భార్యాసు ఏక వ్యవహారో భవతి, వృత్తి భవతి. కళత్రేషు యా వృత్తి సా కళత్ర వృత్తి. అన్య సామాన్య నమ జనరల్ కళత్ర వృత్తి. అనన్య సామాన్య కళత్ర వృత్తి ఇచ్చితే సమ్ హీఈస్ వెరీ స్పెషల్ ఇన్ కీపింగ్ తత్ర కళత్ర వృత్తౌ ఏక స్పెషాలిటీ వర్తతే ఇతి వదతి. కథమిచ్చితే ఏకస్మిన్నేవ సమయే స్వయం అధరం పిబతి స్వస్య అధరం పాయయతి చ. పిబత్యసౌ పాయయతి ఏక సింధో జూట్లు తస్య కథనమేవ విలక్షణం భవతి. ఇత్యుక్తే నాయికాయాః అధరపానం యదా నాయకః కరోతి తదానీం స్వాధరం నాయికా తు పాతుం న శక్నోతి. పరంతు సముద్ర ఏక విలక్షణ అనన్య కళత్ర వృత్తి ఇది వదతి. అత ఏవ అనన్య కళత్ర వృత్తి పిబత్యసౌ పాయయతే చ సింధూః. సహ సముద్ర సింధూః నాయికాః నద్యః స్వయం పిబతి పాయయతి చ సమసమయం పాయయతి చ. అతః పిబత్యసౌ పాయయతే చ సింధూః ఇతి లఘు అక్షరే బహు విచిత్రమర్థం సహ వదతి. అనంజ సామాన్య కళప్రవృత్తి పిబత్యసౌ పాయయతే చ సింధూః ఇతి లఘువంశి. తద్వత్ సమగ్రం తత్ర ఇత్యుక్తే నదీ సాగర సంగమే అపి శృంగారం దృశ్యతే. నదీ సాగర సంగమమపి యతః నదీ జలం యథా సముద్రే ప్రవిశతి తథా సముద్ర జలం నద్యామపి ప్రవిశతి ఇతి నేచురల్ ఆస్పెక్ట్. తత్ర అహం ఉక్తవాన్ ఖలు కాళిదాసస్య నేత్రం సర్వదా సౌందర్యమేవ పశ్యతి. తత్రాపి ఏకం శృంగార సౌందర్యం పశ్యతి సహ. నేచురల్ ఫినామినా యదా నదీ గత్వా సముద్రే ప్రవిశతి నదీజలమం సముద్రే ప్రవిశతి సముద్రజలమపి నద్యాం ప్రవిశతి. అతఏవ నదీ సముద్ర సమీపే నద్యాం జలం ఖారం భవతి. తథాపి తత్ర సౌందర్య దృష్ట్యా చమత్కార దృష్ట్యా అనన్య సామాన్య కళత్ర వృత్తి పిబత్యసౌ పాయయతే చ సింధూః ఏవం ఏతాదృశ అభిప్రాయాన్ని కథయతి. అతః సర్వం వస్తు బహు సుందరం వర్ణయతి కాళిదాసః. అలా తదాత్మానమపి విస్మరిష్యామి, యది అహం వనజ్యోత్సనాన్ విస్మరామి తర్హి అహం ఆత్మానమపి విస్మరిష్యామి. అలా రమణీయే ఖలు కాలే ఏతస్య లతా పాదప మిథునస్య వ్యతికర సంవృత్తః. ప్రియం వదాం వదతి శకుంతల, పశ్యతు అత్యంత యోగ్యే సమయే సహకార వృక్షోపి అత్యంత యౌవనం నవయౌవనం ప్రాప్తః. ఏషా వనజ్యోత్స్నా లతాపి అత్యంత నవయౌవనం ప్రాప్తవతీ. అనయోర్ ద్వయోః మధ్యే వ్యతికరః సంబంధః అత్యంత యోగ్యే సమయే నవయౌవన సమయే ప్రాప్తః అతీవ రమణీయో వర్తతే ఇతి స అనుభవత్. నవకుసుమ యౌవనా వనజ్యోత్స్న నవైః కుసుమైః నవైః పుష్పైః నూతనైః పుష్పైః యౌవనం అనుభవతి వనజ్యోత్స్న. స్నిగ్ధ పల్లవతయా ఉపభోగక్షమః సహకారః. స్నిగ్ధాః స్నిగ్ధాని యాని పల్లవాని సంతి ఆటం నాస్తి స్ప్రింగ్ అస్తి. స్నిగ్ధాని యాని పల్లవాని సంతి తైః పల్లవైః ఏష సహకార వృక్షోపి ఉపభోగస్య క్షమః ఉపభోక్తుం యోగ్యః వర్తతే. అతః సహకార వృక్షే సర్వత్ర పల్లవాని స్నిగ్ధాని సంతి వనజ్యోత్స్నాపి ఇదమిదానీం పుష్పితా వర్తతే. అనయోర్ద్వయోః సమాగమః అత్యంత యోగ్యే సమయే రమణీయతయా సంవృత్తః ఇతి కాంప్లిమెంట్ దదాత్. సుఖం అనుభవతి యతః నవజ్వనజ్యోత్స్న అనయా ఏవ వర్ధిత. యదా వయం ప్లాంట్స్ అపి వర్ధయామః తాస్వపి సోదరస్నేహః భవతి. अतीव स्नेहो भवति प्रथम पुष्पस्य आविर्भावे महत् आनन्दं वयम् अनुभवामः एतादृशं फीलिङ्ग्स् अस्माकमपि सन्ति कालिदासः कथयितुं शक्नोति वयं कथयितुं न शक्नुमः अनुभवामः वयमपि कालिदासः कथयितुमपि शक्नोति अत्र प्रियं वदा वदति प्रियं वदा वदति अनसूयां प्रति अनसूये जानासि किं शकुन्तला वनज्योत्स्नाम् अतिमात्रं पश्यति इति यु अण्डर्स्टुड् जानासि यु नो देट् किमर्थं शकुन्तला वनज्योत्स्नां तां नवमालिकालताम् अतिमात्रं पश्यति अत्यधिकतया पश्यति इति जानाति वा रहस्यम् इति अनसूयां पृच्छति अनसूया न खलु विभावयामि इन्नोसेंट् गर्ल् न खलु विभावयामि ऐ डोण्ट् सी एनी बिग् रीज़न् कथय यू टेल् मी प्रियं वद यथा वनज्योत्सन अनुरूपेण पादपेन सङ्गता अपि नाम एवम् अहमपि आत्मनो अनुरूपं वरं लभेय यथा वनज्योत्सन अनुरूपेण वरेण सहकारवृक्षेण सङ्गता वर्तते अपि नाम अत्रापि इडियोमेटिक् यूस् अपि नाम मी आल्सो अहम् अपि अनुरूपेण अनुरूपं वरं लभेय इति मनसि आशङ्कां कृत्वा अधिकाधिकं मनज्योत्सनां पश्यति इति प्रियं वदा वदति शकुन्तला नूनम् एष नूनम् तव आत्मगतो मनोरथ वेरि वेरि नेचुरलिस्टिक् रेब्यूक् एष नूनम् तव आत्मगतो मनोरथ भवत्याः मनसि एष मनोरथः नूनं वर्तते मम मनसि तथा किमपि नास्ति राजा श्री डैलाग् राजा कम्स् इन् टु दिस् ही इस् लुकिङ्ग् फर् द केक् बहिर्नाय वृक्षस्य पश्चादेव ओहो अपि नाम कुलपतेः इयम् असवर्णक्षेत्रसम्भवा स्यात् नौ पहले नौ ही वाण्ट्स् मोर् डिटेल्स् अबौट् शकुन्तला हौ शी इस् रिलेटेड् टु कम्बा वेदर् शी इस् ओन् डाटर् आर् अडाप्टेड् डाटर् अपि नाम कुलपतेः कण्वस्य इयम् एषा शकुन्तला असवर्णक्षेत्रसम्भवा स्यात् सवर्णक्षेत्रं नाम ब्राह्मणः ब्राह्मण्यां पुत्रं वा पुत्रीं वा प्राप्नोति असवर्णक्षेत्रसम्भवासा भवति ब्राह्मणः यदि क्षत्रियस्त्रियां यदि कुमारीं वा कुमारं वा प्राप्नोति असवर्णक्षेत्रसम्भव क्षेत्रं नाम स्त्री असवर्णं नाम सवर्णं नाम ब्राह्मणः ब्राह्मणस्य सवर्णः क्षत्रियः क्षत्रियस्य सवर्णः असवर्णं नाम ब्राह्मणः क्षत्रियात् क्षत्रियः वैश्यात् एवम् इण्ट्रेस्टिङ्ग् असवर्णक्षेत्रसम्भव हा तत्र अनुलोमः स्वीकृतोपि वर्तते राज्ञां वर्तते राज्ञां तु अधिकारः असवर्ण विवाहेष्वपि राज्ञां प्रवृत्तिः आसीत् अतः अपि नाम कुलपतेः इयम् असवर्णक्षेत्रसम्भवा स्यात् अथवा कृतं सन्देहेन वै शुड् ऐ डौट् अथवा कृतं सन्देहेन हि कम्स् ए डिसिशन् असंशयं निश्चितरूपेण एषा क्षत्रपरिग्रहक्षमा क्षत्रियेण परिग्रहीतुं स्वीकर्तुम् एषा योग्या एषा निश्चितरूपेण ब्राह्मणकन्या नास्ति यतः यत् यदि ब्राह्मणकन्यका भवति तर्हि क्षत्रियस्य परिग्रहारः न भवति प्रतिलोमः नास्ति अनुलोमः वर्तते प्रतिलोमः नास्ति बेसिकलि वी आर् नाट् डिस्कसिङ्ग् टुडे बेसिकलि अनुलोमः वर्तते प्रतिलोमः नास्ति अतः क्षत्रपरिग्रहक्षमा कथं यत् यस्मात् आर्यं पूज्यं मम मनः मम अन्तःकरणम् अस्याम् अभिलाषे शकुंतलायां मम मनः अभिलाषं प्राप्तवत् इच्छां प्राप्तवत् मम मनः कीदृशम् इत्युक्ते मम मनः सर्वथा पूज्य इत्युक्ते मम चिन्तनं सर्वदा पूज्यं भवति योग्यं च भवति मम मनः तस्यां संलग्नम् इत्युक्ते अवश्यं सा क्षत्रियेण परिग्रहीतुं योग्या एव भवेत् बिकॉज ही इवाल्युएट्स हिमसेल्फ ही नोज़ हिज कैरेक्टर आई एम अ वेरी वेल गुड कैरेक्टर पर्सन सो इफ आई एम इंडल्जिंग इन हर शी शुड बी ए पर्सन फिट टू बी मैरिड बाय ए क्षत्रिय कुतः सकाम ही संदेह पदेशु वस्तुषु प्रमाणम अंतःकरण प्रवृत्तयः सत्पुरुषाणां यदा संदेहपदा वस्तूनि संदेहास्पदानि भवन्ति लॉजिक द्वारा वा शास्त्र द्वारा वा एकम् इदमेवम् इदमेवम् न इति यत्र वयं निश्चेतुं न शक्नुमः तत्र सत्पुरुषाणां अंतःकरणमेव प्रमाणम् सत्पुरुषाणां अंतःकरणं प्रवर्तते चेत् तद् योग्यम् सत्पुरुषाणां अंतःकरणं तत्र यस्मिन् कार्ये न प्रवर्तते तत् अप्रमाणम् इत्येव व्यवस्था अहं सत्पुरुषः slightly egoistic satam hi sandeha padesu vastusu pramanam antahkarana pravruttaya tathapi itna to mera man mein hai tathapi yenam upalakshye tattvata yenam upalakshye tat yenam imam sakuntalam tattvatah truly upalakshye jnasyami Still, I will inquire into the antecedents of Shakuntala to make it perfect. Shakuntala, sambhramam. Oh, hogaya. Bhramaraha agata. Aho, harila seka sambhramodgataha navamalika mujjhitva vadanam me madhukaraha abhivartate. Yada harilam vanajyotsnayam dattam, vanajyotsnayam yaka bhramaraha asi. Saha, जलपातेन भीतस्सन् वनमालिकां परित्यज्य मम वदनम् अधिपतति मम मुखे आगच्छति नेचुरली भ्रमरं वेगेन मुखे आगच्छति चेत् पुरुषाणां वीराणां शूराणामेव भीतिर्भवति सा तु सुकुमारवती कन्या वर्तते अतः सा अत्यन्त भीता वर्तते मधुकरो वर्तते राजा सस्पृहम् परन्तु राज्ञः इतोपि शकुन्तला नयनयोः शकुन्तला मुखे एकं विलक्षणं सौन्दर्यं द्रष्टुं राज्ञः एकः अवकाशः प्राप्तः यतोहि क्वचित् क्वचित् मुखे स्त्रीणां सौन्दर्यातिशयोः इदमपि तादृशम् एकं सौन्दर्यं यत्र भीतिः लघ्वी भीतिः व्याघ्रसिंहः आगच्छति चेत् ततः सौन्दर्यानुभवो न भवति परन्तु एतादृशलघ्वी भीतिः यदा भवति तदानीं मुखे यो विकारो जायते तेन विकारेण मुखम् इतोपि सुन्दरं वर्तते अतः तद्वत् अपि च भ्रमरे एतस्य अमर्षो जातः कुतः भ्रमरः किं किं करोति सर्वमपि शकुन्तलावदनम् आस्वादयति एषः दूरे तिष्ठतः अतः एक किम् उच्यते यन्वि अमर्षः अपि तस्य विषये जायमानः वर्तते कथं शलापाङ्गां दृष्टिं स्पृशति बहुशो वेपथुमती बहुशः अधिकतया वेपथुमतीं वेपथुः कम्पः वेपथुमती कम्पवति भूयो अधिकतया कम्पमानां तां न कम्पमानां शल अपाङ्गाम् इतस्ततः शलं नेत्रां दृष्टिं नेत्रं स्पृशति You are able to touch her eyes, which are always moving around. Chalapangam. Apangaha means one third of the eye. This one third, that one third. In Saundarya Shastra, it is prescribed to see only from the either this one third or that one third, but never from the center part. अतः शलापाङ्गां भ्रमरः इतागच्छति एवं पश्यति ततः गच्छति ततः पश्यति अतः अपाङ्गः सर्वथा चलद्वर्तते शलापाङ्गां वेपथुमतीं दृष्टिं बहुशः स्पृशति। रहस्याख्या इव किमपि रहस्यं वक्तुं प्रवृत्त इव मृदु कर्णान्तिकचरः अत्यन्त सुकुमारयोः कर्णयोः अन्तिके समीपे चरः चरन् स्वनसि, किमपि किमपि मृदु वार्तालापं कर्णे करोति। प्रायः भ्रमराः कर्णदेशम् अपि अधिकतया आयान्ति। करौ व्याधुन्वत्याः एवम् एवं करौ व्याधुन्वत्याः उभौ करौ इतस्ततः कुर्वन्त्याः तस्याः रति सर्वस्वं, रतेः सर्वस्वभूतम् इत्युक्ते रतेः काम् सर्वस्वभूतम् अधरं पिबति, अधरदेशमपि स्पृशति। अरे मधुकरा, यू आर् द ग्रेट्, त्वं कृती, यू आर् द फार्चुनेट् गाय्। वयं तत्त्वान्वेषा, एषा ब्राह्मणस्त्री वा क्षत्रियस्त्री वा इति रिसर्च् करणे नष्टः। वयं तत्त्वान्वेषात् हे मधुकर ओ भ्रमर, वयं तत्त्वान्वेषकारणात् यतः हि कुड् नाट् प्रोग्रेस् बिकास् आफ् दिस् प्राब्लम्। सो वयं तत्त्वान्वेषात् हताः नष्टाः। त्वं खलु कृती, इत्युक्ते यः यां कामयते तस्या सकाशे यः कश्चित् अन्यः आयाति तस्य विषये सहजसिद्धा असूया जायते। अतः मधु अत्र तु मधुकरः चेतनो न, परन्तु तथापि शृङ्गारेण अभिभूतानां सर्वत्र शकुन्तला, ओ न एष धृष्टो विरमति, एष धृष्टः, एष धृष्टः भ्रमरः, न एष विरमति मां न त्यजति, अन्यतो गमिष्यामि, अन्यत्र गच्छामि, ओ कथम् इतोपि आगच्छति, ओ अत्रापि आगच्छति, हला हला परित्रायेथां मां रक्षतम्, मां परित्रायेथां मां रक्षतम् द्विवचनम् व्यस्तः खलु शकुन्तला प्रियम्बदा अनसूये, मां रक्षतम् मां कुतः, अनेन दुर्विनीतेन मधुकरेण अभिभूयमानाम्, अनेन दुर्विनीतेन दुष्टेन मधुकरेण अभिभूयमानाम् अटाक् क्रियमाणां मां रक्षतम् उभे वदतः। इदानीम् अनसूयापि किञ्चित् प्रगल्भा जाता प्रियम्बदा संयोगात्, के आवां परित्रातुं, परित्रातुं वयम् आवां के, का के का, अहम् आवां वयम्, आवां द्वे, वयं के परित्रातुं, दुष्यन्तमात्रं वा, दुष्यन्तम् आक्रन्द, दुष्यन्तं पृच्छ, दुष्यन्तं विषये दुष्यन्तम् आह्वय, वयं के राजरक्षितव्यानि नाम तपोवनानि, तपोवनानि तपोवनानां रक्षणभारः राज्ञः, तपोवने इदानीं कश्चित् भवतीं बाधते, तर्हि तस्य सकाशात् भवत्याः रक्षणं राज्ञः कर्तव्यम्, अतः दुष्यन्तम् आक्रन्द, आवां के, वयं चेत् भवतीं परित्रातुं दुष्यन्तमाक्रन्द, राजरक्षितव्यानि नाम तपोवनानि, तपोवनानि नाम राज्ञा रक्षितव्यानि भवन्ति, अतः राजानमाक्रन्द, राजा अवसरोऽयम् आत्मानं प्रकाशयितुं, अयमवसरः आत्मानं प्रकाशयितुम्, एतावत्पर्यन्तम् आत्मानं गोपितवन्तः, इदानीम् आत्मानं प्रकाशयितुम् अयमेव अवसरः इति उक्त्वा झटिति गच्छति, न भेतव्यं न भेतव्यम् इति गतये, न भेतव्यं न भेतव्यम् शकुन्तले इति कथयन् न गतः इत्यर्थोक्ते राजभावस्तु अभिज्ञातो भवेत्। ओ झटिति न भेतव्यं न भेतव्यम् इति प्रवृत्तः, परन्तु एवमेव झटिति इदानीं गच्छामि चेत् मम राजभावः ताभिः अवगतो भवेत्, अहं राजा इति ताभिः न अवगन्तव्यम्, अतः भवतु एवं तावत् अभिधास्ये, एवं तावत् कथयिष्यामि। दुष्यन्तमाक्रन्द इति कथन समसमयं यः यदि गच्छति ते कदाचित् एनं दुष्यन्तं चिन्तये, ताः एनं दुष्यन्तं चिन्तयेयुः तथा इति शङ्कां प्राप्य ओ चिंता नास्ति एवं कथयिष्यामि किं कथयिष्यति अनन्तरम् आगमिष्यति न भेतव्यं न भेतव्यम् इति गते शकुन्तला कथम् इतोपि माम् अनुसरति ततः अन्यत्र गता तत्रापि आगच्छति क्वचित् क्वचित् भ्रमराः सुन्दरस्त्रीणां विषये अधिक इच्छां प्रकटयन्ति तद् इतोपि आगच्छति राजा तत्परमुपसृत्य कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् अयमाचरत्यभिनयं मुग्धासु तपस्वि कन्यासु बिग् हीरो इव पौरवे शासितरि पूर्वंशसम्भवे दुष्यन्ते वसुमतीं शासितरि वसुमतीं पालयति सती शासति सती दुर्विनीतानां शासितरि कः दुष्यन्तः कीदृशः यो यः दुर्विनीतः तस्य निग्रहकर्ता तस्य कण्ट्रोल् कर्तुं प्रभवः यः कण्ट्रोल् कर्तुं प्रभवति यः तादृश दुष्यन्तः यदा पृथिवीं शासयति परिपालयति कैलेशः कोऽयं मुग्धासु तपस्विकन्यासु अभिनयमाचरति मुग्धासु इन्नसेण्ट् तपस्विकन्यासु तापसकन्यासु एष कः अभिनयमाचरति तमहं ऐ विल् नाट् से कुतः इत्युक्ते तत्र सन्निवेशः कः इत्युक्ते स तु भ्रमरं दृष्टवान् परन्तु दुष्यन्तमाक्रन्दा इति यदा वर्तते परित्रायेथाम् इति शब्दमात्रं यः शृणोति स तु चिन्तयितुमर्हति कोऽपि आगत्य अभिनयं करोति इति तेन मिषेण सह आगच्छति अनसूय आर्य अरे दे फौण्ड् देर् मिस्टेक् आर्य न खलु किमपि अत्याहितं किमपि न जातम् अत्याहितं नाम ट्रबल् अत्याहितं किमपि न जातम् आक्चुलि देर् इस् नो ट्रबल् सर् ओन्लि प्ले अत्याहितं किमपि न जातम् इयं नौ आवयोः प्रियसखी एषा शकुन्तला मधुकरेण अभिभूयमाना न तु केनापि दुर्विनीतेन पुरुषेण अपि तु मधुकरेण अभिभूयमाना कातरीभूता got scared and we were just playing. Sorry sir, we have disturbed you. You need not so much of valor and Raja. Oh, Shakuntala abhimukho bhutva, Shakuntala andrushva, api tapaha vardhate. Kushalam tu prasna kante. Tapasi tu kim pruchyate? Yadi वाणिज्यं करोति अपि वाणिज्यं वर्धते इति पृच्छामः यदि कश्चित् पठति सम्यक् पठति वा इति पृच्छामः तापसकन्यकः किं पृच्छति अपि तपो वर्धते परन्तु अत्र किञ्चित् ऐरणी वर्तते अपि तापः वर्धते इत्यपि तत्र किञ्चित् ऐरणी वर्तते तपतापशब्दो पर्यायवाचकः एवञ्च अपि मदनतापः वर्धते इत्यपि अपृच्छत् अनसूया वदति इदानीम् अतिथिविशेषलाभेन तपः सर्वदा वर्धते इदानीम् अतिथिविशेषः आगतः खलु भवान् यदा यदा उत्तम अतिथयः आश्रमे प्रविशन्ति तदा तदा अतिथिसत्कारोऽपि तपस्या भवति तेनापि तपः वर्धते इदानीम् अतिथिविशेषलाभेन अला शकुन्तले गच्छ उटजम् शकुन्तल पर्णशालां गच्छ फलमिश्रम् अर्घम् उपहर फलसहितं किञ्चित् अर्घम् आचमनार्थं जलं पाद्यं किञ्चित् पादयोः अतिथिरागतः पूजा कर्तव्या किञ्चित् फलानि जलं किञ्चित् चायं काफि यत्किमपि तत्र आहार इदं पादोदकं भविष्यति पादोदकं पाद्यं कुत्र इत्युक्ते पाद्यं तु घटे वर्तते पादपानां जलं सेचितुम् आनीतं जलं यदस्ति तत् पाद्यं भवति आचमनार्थम् अर्घ्यं जलं तथा किञ्चित् फलानि च आनय पर्णशालां गच्छ इति सा सङ्केतं दत्तवती अनुकूय राजा हीस् बादर्ड् वेदर् शी गोस् अवे अतः सः किं वदति नैव भवतीनां सूनृतयैव गिरा कृतमातिथ्य भवतीनां यत् स्नेहवचनं वर्तते सूनृतया गिरा गीः किराकारभिनीयकागतं सूनृतया गिरा नाम vinaya, snehasilena, snehamayena, vachanena iva, kurtam atityam. Atityam sampannam, ataha yatitya karanartham, jalartham, parnashala jantariya nasvi, atrayvati sthayityam. Kurtam atityam. Priyambada, enahi asyam prachaya sitalayam, saptaparna vedikayam, muhurtam upavishya, parishrama vinodam karotu arya. Tarihi atrayva, saptaparna vrukshaha vartate, tasya vedihi, kinchitu tatra upavestam kinchitu unnatam asanam krutamasti, tatra upavishya bhavan, kimapi atra atyahitam jayamanam asti iti krutva, dhavitva, dhavitva, agatya, bahu parishramam prapya vartate, ataha parishramasti vinodam karotu. Atra vinoda shabdaha apanayanarthe prayujyate. Prayaha vinoda shabdaha apanayanarthe prayujyate. Jika parishramasya vinodam, parishramasya apanayam karo. Chinchit upavishat, bhavan dhavitva, dhavitva, bahu, tivra vegena, manasi api, kopi, kimapi, kopi, kapi, kanya, akrandaram karoti, kachit avinaya macharati, tishrutva, yada dhavitva gachyamaha, tadani anxiety bhoti kalu, tena parishranto bhavan vartate, ataha kapra upavishya chinchit, sukham karoti. Iti varastu, anantaram, raja. Nunam yuyamati bhavan bhavatyaha api anena karmana jalanena karmana parishrantaha ahameva tayardu nasmi bhavatyaha api tayardu santi yataha yenam upavishya tatra yataha gacchanti cheti ataha ayam avasaraha bhavatinam api kinchit vishranti svikarasya ayam yogyaha avasaro vartate yataha bahukala paryantam jalam svikrutya padapesu dattva parishrantaah santi anasuya ala Shakuntale uchitam naha paryupasanam atithinam Shakuntale naha asmakam atithinam paryupasanam atithinam paryupasanam nama atithayaha yada upavishanti taisaha upaveshanam asmakam uchitam bhavati dharmaah bhavati kashchit grihe atithir agacchati bahavah janaah kim kurvanti agacchat upavishatu ityuktva antaha prakoshte prayujyate yetasya kevalam tv bhavati entertainment athava newspaper bhavati athava yatkinchit bhavati punaha te naiva agacchanti bahi evam na kartavyam yada atithir agacchati avashyam tena saha kashchit kalah tasya sammanartham asmabhirate upaveshtavyam vartate it is kartavyam. Then of course if you want to bring some chai or coffee, after 5-10 minutes, tell him, I will prepare coffee for you. It's required. Paranthu kekana evameva gacchati. Bharate atyadhikam. Atra kinchit janaha kartiyasya bhavanti. Manasi anuragaha asti va na va. Bahih vyavaharam tu samyak madarati. Bharate anya katha. Buddhipurvakam bahavaha antah grihe gacchanti. Pravishamaha grihe kopi bahireva nayat. Dasapancha nimesha paryantam. Agato va ityanantaram dvara. Kada kada. Bharate nama sarvesham ityana. Kechana. Ha yam nechanti. Ye unwanted guest agata. Kim karishyana. Yevameva prakatayanti. You are unwanted guest. Prakatayanti. Ha. Parantu. Atithinam paryupasanam. Atithijistaha samana samite upaveshanam uchita. Atropavishama. Vayamapya atropavishama. Shakuntala. Kinnukhal vimum prekshya. Atmakatam. Atmakatam nama samskrita drama madhye kathichana dailas maik madhyeva kathayanti paranthu parshvastaha nataha natrunoti. Sorry, lost. I mean, within oneself. English madhye kvartate. But English madhye prayaha English drama madhye ekayeva janaha stage madhye bhavati. Prayaha salyasu madhye. Bahusu satsu ekaha atmakatam navade. Paranthu samskrita drama madhye tadapi vartate. Ka vadati kinnu khalu imam prekshya yenam drushtva tapovana virodhino vikarasya tapovana virodhi yo vikaraha tadrushasya kashchana manovikarasya gamaniya asti samvrutta aham gamaniya prapaniya aham jata itukte kopi vikaraha mayi kimartham anyaviha kashchana vikaraha mama manasi idanim pravartate yaha vikaraha tapovana virodhi vartate. తపోవనస్య అనుకూలః నాస్తి ఇది ఆత్మని సావదతి రాజా అహో సమవయోరూప రమణీయం భవతీనాం సౌహార్దం భవతీనాం సౌహార్దం స్నేహ అత్యంత రమణీయో వర్తతే సౌహార్దోపి రమణీయః స్నేహోపి అతీవ రమణీయః వర్తతే అపితు సమవయోరూప రమణీయం రమణీయతా సౌహార్దే కిమర్థమాగత ఇత్యుక్తే రూపమపి సమ వయహాపి సమానం రూపమపి సమానం త్రయాణామపి శిశ్రూణామపి తాసాం కన్యకానాం రూపం వయః యస్మాత్ సమానం వర్తతే అతః అతీవ సౌహార్దం ప్రశంసనీయం వర్తతే ఇతి అనసు ప్రియం వద అనసూయే కోన్ ఖలు ఏషః చతుర గంభీరాకృతిః మధురం ప్రియమాలపం ప్రభావవానివ లక్ష్యతే కోపి ప్రభావవాన్ పురుషైవ దృశ్యతే సామాన్య జనః నాస్తి ప్రియం వదవదు అనసూయే కోన్ ఖలు ఏషః ఏషః కః భవేత్ కీదృశః ఏషః చతుర గంభీర ఆకృతిః ఆకృతిః గంభీరాపి వర్తతే చతురాపి వర్తతే చాతుర్యం భిన్నం గాంభీర్యం భిన్నం ఉభయమపి వర్తతే మధురం చ వదతి ప్రియం చ వదతి మధురం ప్రియం చ ఆలపన్ ప్రభావవానివ లక్ష్యతే కోపి ఉత్తమ జన ఇవ లక్ష్యతే సామాన్య జన ఏతావత్ చతురో నభవతి ఏతావత్ గంభీరోపి నభవతి అపితి ఏతాదృశ రూపేణ ప్రియం చ మధురం చ ఆలపితుం నశక్నోతి కోపి గంభీర పురుషః ఏష భవితుమర్హతి కోసం అనసూయ కహి మమాప్యస్తి కౌతూహలం అహమపి ఏతదేవ జ్ఞాతుం ఇచ్ఛామి కః ఏషః కస్మాదాగతః పృచ్ఛామి తావదేనం అనసూయ ఖలు డైరెక్ట్ స్పీచ్ పృచ్ఛామి తావదేనం ఏనా ఏనమేవ పృచ్ఛామి అన్యథా కథం వా జ్ఞాయేత పరంతు ఆర్యస్య మధురాలాప పరంతు ప్రశ్నకరణస్య విశేషః బహు సుందరో భవతి ఆర్యస్య మధురాలాప జనితో విశ్రంభ మాం మంత్రయతే ఆర్యస్య పూజ్యస్య భవతః మధుర ఆలాప జనితః మధురః యః ఆలాపః వచన రీతిః తేన జాతః విశ్రంభః కాన్ఫిడెన్స్ భవదీయ సుమధుర వాగ్ వ్యవహారేణ మమ మనసు కించిత్ ధైర్యమాగతం ఇదం ప్రస్తుతం నోచేత్ ప్రాయః నూతనే జనే భవాన్ కః ఇతి వయం న పృచ్ఛామః భవాన్ యస్మాత్ మధురమపి వదతి ప్రియమపి వదతి సరళమపి సహృదయైవ సరళైవ వదతి అతః ప్రష్టుం మమ ధైర్యమాగతం విశ్రంభః మాం మంత్రయతే ధైర్యం మాం ప్రేరయతి ప్రష్టుం విశ్రంభః కాన్ఫిడెన్స్ మాం మంత్రయతే ప్రేరయతి కతమః ఆర్యేణ రాజర్షి వంశః అలంక్రియతే దే గాట్ ఎ సెన్స్ దట్ హి మస్ట్ బి ఎ కింగ్లీ పర్సన్ సమ్ బై నియర్ రాజ్ఞః ముఖే తు రాజఛాయా తు భవత్యేవ గోపయితుం తు నశక్యతే అతః కతమః రాజర్షి వంశః బహుషు రాజవంశేషు కః రాజవంశః ఆర్యేణ అలంక్రియతే ఆర్యేణ అలంక్రియతే కతమోవా విరహ పర్యుత్సుక జనస్కృతో దేశ కతమో దేశ బహుషు దేశేషు కోసౌ దేశ యత్ర జనాః భవదీయ విరహేణ దుఃఖితాః వర్తంతే విరహ పర్యుత్సుకితో కృతో దేశ కోసౌ దేశ యః భవదీయ విరహేణ పర్యుత్సుకుతాం ప్రాపితః పర్యుత్సుకుతాం ప్రాపితః దుఃఖం ప్రాప్తః గచ్చతి దుఃఖం తు భవత్యేవ కిం నిమిత్తం వా సుకుమార తరోపి తపోవన గమన పరిశ్రమస్య ఆత్మా పదముపనీత కిం నిమిత్తం వా ఏతావత్ సుకుమార తరో భవాన్ దృశ్యతే ఏతావత్ ఆశ్రమస్థానం ఏతావత్ దూరమాగత్య ఆశ్రమస్థానే ప్రవేశ రూపం కష్టం కిమర్థం వా స్వీకృతం ప్రశ్నకరణస్య మర్యాద హూ ఆర్ యు Why did you come? What is your job here? Kinchit vidhantarena samyak prasyati. Aryasya madhuralapa janito visrambho maam mantrayate. Katama aryena rajarishivam kaha alankriyate. Katamo vagraha parayutsuka janaskruto desha. Kim nimittam va kena nimittena sukumara taropi bhava. न केवलं सुकुमारः परन्तु अतिशयेन सुकुमारः सुकुमारतरः सुकुमारतरोऽपि भवान् तपोवनगमनपरिश्रमस्य तादृश अरण्ये कोणे विद्यमान तपोवनपर्यन्तम् आगमनस्य आगमनकृतस्य परिश्रमस्य आत्मा तदमुपनीतः स्थानं प्रापितः एतादृशश्रमः किमर्थं स्वीकृतः इति पृच्छति शकुन्तला आत्मगतं मनसि वदति मा हृदय मा उत्थाम्य ओ हे मे हृदय अधिकं तापं न करोतु न प्राप्नोतु मा उत्थाम्य उत्थाम्य नाम उत् अधिकं ताम्य तपं कृत्वा इत्युक्ते एंशियस् अधिकं डोंट बी ओवर एंशियस् एषा त्वया चिन्तिता चिन्तितानि अनसूया मन्त्रयते त्वया यानि प्रस्तुति चिन्तितानि वचनानि तानि अनसूया स्वयं वदति अतः यू विल गेट सम रिप्लाई बी पीसफुल मा उत्थाम्य बी पीसफुल हृदयं प्रति वदति राजा कथमिदानीम् आत्मानं निवेदयामि कथं वदामि अहं दुष्यन्तः इति वदामि वा अन्यथा वदामि वा कथं वा आत्मा अपहारं करोमि आत्मनः अपहारम् इत्युक्ते आत्मा तु दुष्यन्तः अहं दुष्यन्तः इति यथा ते न जानीयुः कथं तथा कथं वा गोपयामि इति मनसि विचिन्त्य भवतु एवं तावदेनां वक्ष्ये अनेन प्रकारेण कथयिष्यामि प्रकाशं बहिः प्रकाशं नाम बहिः भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः भवति ओ ओ मै रेस्पेक्टेड् लेडी रेस्पेक्टेड् भवति यः पौरवेण राज्ञा कुरुवंश राज्ञा दुष्यन्तेन धर्माधिकारे नियुक्तः सर्वत्र धर्मपरिपालनार्थं नियुक्तः आफीसर् वर्तते सोऽहम् दुष्यन्तस्य धर्माधिकारे अहं नियुक्तः इत्युक्ते सर्वत्र राज्ये तापसानां धर्मः सम्यक् वर्तते वा वणिजां धर्मः क्षत्रियाणां धर्मः स्त्रीणां धर्मः मुनीनां धर्मः सर्वं यथायथं प्रवर्तते न वा इति सम्यक् परिपालयितुं यः आफीसर् जनः नियुक्तः वर्तते सोऽहम् अविघ्नक्रियोपलम्भाय अत्र आश्रमे क्रियाः तापसक्रियाः अविघ्नतया वर्तन्ते वा न वा इति उपलम्भाय ज्ञातुं धर्मारण्यमागतः इत्युक्ते अस्मिन् अरण्ये सर्वेषामपि आश्रमस्थानां तापसानां तत्तत् तापसक्रियाः सम्यक् रूपेण अनुष्ठीयमाना वर्तन्ते वा कोऽपि विघ्नोऽस्ति वा वन्यमृगैः वा राक्षसैर्वा दस्युभिर्वा तत् ज्ञातुम् एवं चरन् चरन् अत्र धर्मे मम अधिकारः तस्मादत्र आगतः अनसूया सनाथा इदानीं धर्मचारिणः हा इदानीं धर्मचारिणः वयं धर्मम् आचरन्तः वयम् इदानीं सनाथा जाताः सनाथा इत्यत्र वन् वर्तते इत्युक्ते इदानीं धर्ममाचरन्तो वयं वि हेव् ए प्रोटेक्टर् वित् अस् इति एकोऽर्थः वयं सनाथा जाताः इत्युक्ते किञ्चित् तन् अस्ति यत् सामाजिकाः अवगच्छन्ति पादोनाष्टभोजनस्य समयः पञ्चदशनिमेषाः अहं समापयामि सर्गद्वयं शाकुन्तलम् इत्युक्तवान् सर्वं समापितवान् सख्यौ हला शकुन्तले यद्यत्र एते शकुन्तलां किञ्चित् क्रीडितः हला शकुन्तले यदि अत्र अद्य प्रातः सन्निहितो भवेत् हला शकुन्तले यदि इफ् अत्र अस्मिन् प्रदेशे अद्य एतस्मिन् क्षणे प्रातः सन्निहितो भवेत् खण्डः सन्निहितो भवेत् कथं भवेत् भवतः भवत्या तस्याः मनसि विकारम् एतौ द्वौ गृहीतः शकुंतला तपश्चिम भवे भवतु तातो वा भवतु पितामहो वा भवतु तपश्चिम भवे किम भविष्यति हाँ तक्षु इमं जीवित सर्वस्वेनापि अतिथि विशेषम कृतार्थम करिष्यति इमं अतिथि विशेषम वेरी एक्सेप्शनली ग्रेट अतिथि इमं अतिथि विशेषम कृतार्थम करिष्यति तातः किं दत्वा जीवित सर्वस्वेनापि कृतार्थम करिष्यति कन्वस्य जीवित सर्वस्वं का शकुंतला अतः तदेव तत्र इमं अतिथि विशेषं स्वकीय जीवित सर्वस्वेनापि कृतार्थं करिष्यति यदि अत्र तातः सन्निहितो भवेत् परन्तु राजा ग्रहीतुं न शक्नोति इमौ ग्रहीतु शकुंतला युवाम् अपेतम् युवाम् अपेतम् युवाम् अपेतम् गच्छतु किमपि हृदये कृत्वा मन्त्रयेते किमपि किमपि भवत्या मनसि कृत्य किमपि किमपि वदन्त्यौ भवतः भवत्यौ द्वावपि इतः गच्छतु न युवयोर्वचनं शृणु श्रोष्यामि युवयोः वचनं न श्रोष्यामि युवयोः वचनं नैव शृणोमि राजा वयमपि तावत् भवत्योः सखीगतं किमपि पृच्छामः यतः सा दुष्यंत विषये पृष्टवती सो ही गॉट अ रीजन टू आस्क सम क्वेश्चन अबाउट शकुंतला वयमपि अतएव अपि शब्दं वदति भवन्तः पृष्टवन्तः अहं कः अहं धर्माधिकारी उक्तवान् अतः वयमपि रायल वी नॉट बहुवचनं वी रायल वी वयमपि तावत् भवत्योः सखीगतं न तु भवती भवत्योः गतं भवती गतं न भवती या काचित् भवतु मम चिन्ता नास्ति भवत्योः सखीगतं शकुन्तला विषयकं किमपि पृच्छामः किमपि पृच्छामः सख्यौ आर्य अनुग्रह इव इयम् अभ्यर्थना अस्माकं सखी विषये भवान् प्रष्टुमिच्छति इति एषा प्रार्थना नास्ति भवतः अनुग्रहः एषा एषा भवदीया प्रार्थना नास्ति परन्तु अस्माकं एषः भवदीयः अनुग्रहः अनुग्रहः कृपा राजा भगवान् काश्यपः शाश्वते ब्रह्मणि स्थितः इति प्रकाशः भगवान् काश्यपः भगवान् कन्यः कण्वः शाश्वते ब्रह्मणि इत्युक्ते आजन्म ब्रह्मचर्यं शाश्वतं ब्रह्मचर्यम् इत्युक्ते आजन्म ब्रह्मचर्यं स्वीकृतवान् इति प्रकाशः प्रकाशः नाम वयं प्रकाशः रहस्यं किं वयं न जानीमः इति प्रकाशः इयञ्च वस्तकी तदात्मजा इति कथमेतत् इयं च वः सखी इयं च भवतोः या सखी शकुन्तला तदात्मजा कण्वस्य दुहिता इति भवत्यौ उक्तवत्यौ एतत् कथम् लोके कण्वः शाश्वतब्रह्मचारी इति प्रसिद्धिः तर्हि तस्य विवाह एव नास्ति चेत् आत्मजायाः सम्भवः कथम् इति वयं प्रष्टुमिच्छामः अनसूय शृणोतु आर्यः ओ यु दिस् इस् वाट् यु वाण्ट् टु नो शृणोतु अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षि एकः कौशिकः इति गोत्रनामधेयवान् महाप्रभावशाली राजर्षिः विश्वामित्रः इति स्वं नाम गुड् नेम् इस् विश्वामित्र कौशिक इस् सर्नेम् थर्ड् नेम् लास्ट् नेम् कौशिक इति गोत्रनामधेयः लास्ट् नेम् इस् गोत्रनामधेयः कौशिक इति गोत्रनामधेयः महाप्रभावो राजर्षि अस्ति श्रूयते सत्यं राजा अस्ति श्रूयते अनसूय तम् आवयोः प्रियसख्याः प्रभवम् अवगच्छ आवयोः प्रियसख्याः प्रभवः प्रभवं तं जानाति इत्युक्ते विश्वामित्रम् आवयोः सख्योः पितरं जानाति उज्जितायाः परित्यक्तायाः अस्याः शरीरसंवर्धनादिभिः तातकाश्यपः अस्याः पिता। यदा शकुन्तला मेनकया तत्रैव सपदि परित्यक्ता, तदनन्तरं तस्याः शरीरसंवर्धनं पालनं पोषणं च कृतं काश्यपेन कण्वेन इति कृत्वा इदानीं तातकाश्यपः अस्य धर्मतः पिता न तु जनकः पिता। राजा उज्जितशब्देन जलितं मे कौतूहलम्। उज्जित इति शब्दप्रयोगेन मम किञ्चित् इन्क्विजिटिव्नेस् भवति, आमूला श्रोतुमिच्छामि, किञ्चित् अधिकमेव ज्ञातुमिच्छामि। अनसूय शृणोतु आर्यः, गौतमी तीरे पुराशिल राजर्षेः उग्रे तपसि वर्तमानस्य। गौतमी नद्याः तीरे पुराशिल, कदाचित् प्राचीनकाले, तस्य राजर्षेः विश्वामित्रस्य उग्रे तपसि वर्तमानस्य, अति कठोरे तपसि प्रवर्तमानस्य, किमपि जातशङ्कैः देवैः, देवतानां शङ्का जाता, एष उग्रं तपः कृत्वा इन्द्रपदवीं प्राप्नुयादिति शङ्कां कुर्वद्भिः देवैः मेनका नाम अप्सराः प्रेषिता नियमविघ्नकारी। विश्वामित्रस्य नियमानां विघ्नं सम्पादयितुं मेनका नाम अप्सराः प्रेषिताः। अप्सराः इति एकवचनं, अप्सराः अप्सरतौ अप्सरतः, मेनका चन्द्रमाः इति स्त्रीलिङ्गं, चन्द्रमाः पुंलिङ्गं, नियमविघ्नकारी। राजा अस्ति एतत् अन्यसमाधिभिरुक्तं देवानां, या दीस् गॉड्स्, एते देवाः अन्येषां समाधौ भीरवो भवन्ति इति अस्ति एव। यः समाधिस्थितिं प्राप्नोति तस्य तस्य विषये एते भीता भवन्ति देवाः इति प्रसिद्धिः वर्तते। अहं जानामि, पूर्वमपि अन्यस्यापि विषये एवमेव आसीत्। अनसूय ततो वसन्तोदार वसन्त ऋतौ उदार प्रकृति इति किमपि वक्तुं किञ्चित् माडस्ति पुरुषस्य सकाशे तं सन्निवेशं कथं वा कथयति। अतः अर्धे परित्यक्तं वसन्तोदार समये तस्याः उन्मादयितृरूपं प्रेक्ष्य, तस्याः मेनकायाः उन्मादयितृरूपं मदयति, मदं जनयति यद्रूपं, तादृशं तत् सौन्दर्यं प्रेक्ष्य इति पर्यन्तम् उक्त्वा अग्रे नोक्तवती। परस्तज्ञायते राजा, परस्तज्ञायते, अनन्तरं किं जातं वयं जानीमः। अतः सर्वथा अप्सरसम्भवा एषा शकुन्तला सर्वथा अप्सरसम्भवा एव भवितुमर्हति। नो चेत् एतादृशं रूपलावण्यम् अन्येषां भवितुम् अर्हति, उपपद्यते। अनसूय अथ किम्, सत्यम् अप्सरसम्भवैव एष, अथ किम् इत्युक्ते प्रश्नः न, अथ किम् इति सर्वदा नाटकेषु आयाति। वस्तुतः अस्माकं संस्कृत इडियं वर्तते, भवान् भारततः आगतो वा इति यदि भवन्तः मां पृच्छन्ति, मया अथ किम् इति वक्तव्यम्। हिन्द्यां वर्तते एष व्यवहारः, और क्या आपने देखा, और क्या నువ్వు మనం హిందీలో అవునంటాం కాదు, ఔర్చ్య అంటారు, అథకి ఇది యదా వక్తవ్యం తదా అథకిమితి వక్తవ్యం, నాయం ప్రశ్నార్థక కిమితి, నాయం ప్రశ్నార్థక ఇడియమేటిక్ యూజ్ రాజా ఉపపద్యతే, దిస్ ఇస్ డిఫిటీ, కథం మానుషీషు కథం వా స్యాత్ अस्य रूपस्य संभवः उत्पत्तिः मानुषेषु कथं वा स्यात्, मनुष्य स्वभावे कथं वा स्यात्, न भवितुमर्हति। न प्रभातरलं ज्योतिः उदेति वसुधारा, प्रभातरलं प्रभया तरलितं कान्त्या महितं कान्त्या जाज्वल्यमानं ज्योतिः पृथ्वीतः न उत्पद्यते, आकाशतः एव अवतरति। न प्रभातरलं ज्योतिः प्रभया तरलितं, तरलितं नाम चञ्चलं, प्रभया चञ्चलं यत् ज्योतिः तेजः, त तत्तु तेजः सर्वोपि आकाशतः एव अवतरति न तु पृथ्वीतः उत्पद्यते न प्रभातरणं ज्योतिः वसुधातलात् न उदेति भूमेः सकाशात् न उदेति एवमेव अस्याः इदं रूपं अप्सरस् मानुषीषु भवितुं नार्हति देवकन्यया देवकन्या द्वारा एव भवितुम् अर्हति राजा आत्मगत इति प्रकाशमुक्त्वा लब्धः अवकाशो मे मनोरथः मम मनोरथः शकुन्तला विषये मम या कामना सा इदानीं लब्ध अवकाशः नौ रास्ता इज क्लियर इतः परं यत् करणीयं तस्यन्तरे किन्तु सख्याः परिहासोदाहृतान् इति आत्मगतमुक्त्वा वरप्रार्थनां श्रुत्वा धृतद्वैभीभावकातरं मे मनः पूर्वं वार्तालापसमये येषापि अनुरूपेण वरेण सङ्गता स्याम् इति चिन्तयति इति प्रियंवदा उक्तवती तद्वचनं श्रुत्वा सख्याः परिहासोदाहृतां परिहासार्थमेव उक्तवती तथापि कदाचित् परिहासोऽपि स्यात् कदाचित् परिहासवचनस्य पृष्ठभागे किमपि तत्त्वमपि स्यात् किमुक्तवती वरप्रार्थनां वरं कमपि एषा प्रार्थयते इति एकम् एक्स्प्रेशन् पूर्वम् आगतं तत् श्रुत्वा द्वैधीभावकातरं मे मनः मम मनः भीतभीतं वर्तते इत्युक्ते एषा कदाचित् कमपि अन्यं वरं प्रार्थयते वा यतः वरप्रार्थनाविषये एक रेफरेन्स् आगतं कदाचित् एषा अन्यस्मिन् कस्मिंश्चिद्वरे यदि संलग्ना स्यात् तर्हि मम कामनायाः पूर्तिः न स्यात् इति पुनः अपि कातरो भवामि तदपि कथमपि ज्ञातव्यम् अतः किमपि प्रष्टुमिच्छामि तु वदतु प्रियं वद पुनरपि वस्तुकाम इव आर्यः इन्स्टिगेटिङ्ग् हिम् पुनरपि वस्तुकाम इव आर्यः भवतः मुखस्य दर्शनेन इदम् अनुभवामि यत् भवान् किमपि अन्यदपि किमपि प्रष्टुमिच्छति इत्युक्ते हि इस् गिविङ्ग् द रूम् फार् हिस् प्रियं वद इस् अ ब्यूटिफुल् वण्डर्फुल् वण्डर्फुल् सम्यक् उपलक्षितं भवत्या ये यु गाट् मी दर् सम्यक् उपलक्षितं भवत्या अस्ति नः सच्चरितश्रवणलोभात् अन्यदपि प्रष्टव्यं सच्चरितं यत् शकुन्तलायाः जन्मादिकश्रवणं ततः अन्यदपि किञ्चित् प्रष्टव्यमस्ति प्रियं वद अलं विचार्य अलं विचार्य अलम् इति शब्दः निषेधास्ते किमर्थं चिन्तयसि पृच्छतु अलं विचार्य अनियन्त्रणानुयोगः तपस्विजनो नाम तपस्विजनः ये भवन्ति तेषां सकाशे अनुयोगः नियन्त्रितो न भवति प्रश्नकरणं कण्ट्रोल्ड् न भवति इत्युक्ते प्रायः केषु केषुचित् जनेषु किञ्चित् किञ्चिदेव प्रष्टव्यम् सर्वं सर्वत्र न प्रष्टव्यम् मर्यादा लोके मर्यादा वर्तते अनियन्त्रण अनुयोगः अनुयोगः नाम प्रश्नकरणं प्रश्नकरणे प्रायः लौकिके लोके बास् भवति यु कनाट् आस्क् एव्रिथिङ्ग् हिम् सर् यस्टर्डे नैट् वेर् डिड् यु गो नो यु कनाट् आस्क् कति मित्रस्य विषये प्रष्टुं शक्यते बास् विषये प्रष्टुं न शक्यते इत्युक्ते लोके अनुयोगकरणं यत् प्रश्नकरणं तत् नियन्त्रितं भवति तद् मर्यादा वर्तते यु शुड् नाट् क्रास् अवर् लिमिट् अत एव इफ् दट् वि डू इट् हि विल् यु आर् क्रासिङ्ग् युवर् लिमिट् बी इन् युवर् लिमिट् सः सावश्यं वदिष्यति बी इन् युवर् लिमिट् इति कथयिष्यति इति लोके मर्यादा वर्तते वयं तु तापसजनः तापसजने महाराजी स्वामीजी के पास् गे स्वामीजी के पास् इदं प्रष्टव्यम् इदं प्रष्टव्यम् इति यद्यत् मनसि आयाति दुःखं सुखं सर्वं वदतु वयं तापसजनः अनियन्त्रणानुयोगो नाम तापसजनः अनुयोगः प्रश्नकरणं नियन्त्रितं न भवति अस्माकं यत्किमपि प्रश्नमिच्छति पृच्छतु तपस्विजनो नाम एवञ्च आक्चुलि आश्रमेषु एतादृशलोकव्यवहाराः न भवन्ति तत्र सहजतया सर्वं स्पष्टं भवति लोके व्यवहारः भिन्नः भवति राजा इयं इति सखीं ते ज्ञातुम् इच्छामि, इति सखीं ते ज्ञातुम् इच्छामि, इति वक्षमाण रूपाम्, इति वाचमाददे, इति सखीं ते ज्ञातुम् इच्छामि, इत्युक्ते वक्ष्यमाण रूपेण वयं सखीं ते ज्ञातुम् इच्छामः. इदानीम् अनया यदिदं वैखानसव्रतं स्वीकृतं, स्वामी ई वैखानसमेव इति, नी वैखानसमेन इंको व्याख्यासम्, इंको वैखानसम అంటే మరి తాపస వ్రతం అనే అదేదో విశేషం ఉంది. అది పుష్పమూల ఫలై తదేవ ఆహారతయా స్వీకృత వైఖానస వ్రతం ఇది ఏకం వ్రతం వర్తతే. ఇత్యుక్తే ఏతాదృశ వస్త్రాన్ని ధర్తవ్యాని, ఏతాదృశం భోజనం భోక్తవ్యం, ఏతాదృశ నిద్ర అత్ర శయ్యాయం భూమో ఏవ సేతవ్యం, ఇత్యాది వ్రతం వర్తతే. ఇది వైఖానస వ్రతం. వైఖానసం అనయాయుధం యద్ వ్రతం స్వీకృతం తత్ ఆ ప్రధాన ప్రధానం నామ కన్యా ప్రధానం. వివాహ పర్యంతమేవ వా నో చేత్ జీవన పర్యంతం వా, వన్ హ్యాస్ టు బి క్లియర్ అబౌట్ దాట్. నో, జీవన పర్యంతం అనయా వైఖానస వ్రతం స్వీకృతం, దేర్ ఇస్ నో బిగ్ చాయిస్ ఇన్ మై రన్నింగ్ ఆఫ్ రన్నింగ్ ఆఫ్. సో అనయా ఆ వ్రతం యదిదం వైఖానసం స్వీకృతం తత్ కీదృశం తత్ మదనస్య వ్యాపార రోధి, మన్మత వ్యాపారస్య విరుద్ధం. ఇత్యుక్తే మదన వ్యాపార సంజాత తస్య విరోధి యదిదం తత్ ఆప్రదానాత్ నిషేపితవ్యం వివాహ పర్యంతమేవ అనుష్ఠాతవ్యం వా నో చేత్ అత్యంతం ఆత్మ సదృశేక్షణ వల్లభాభి ఆహో నివత్స్యతి సమం హరిణాంగనాభి. అత్యంతమేవ ఆత్మ సదృశ ఈక్షణ వల్లభాభి, ఆత్మనః యాని ఈక్షణాని నేత్ర యదీక్షణం నేత్రం అథవా ఏ ఈక్షణే నేత్రే తత్ సదృశ ఈక్షణే కేశ హరిణ హరిణాంగనానాం భవతః. ఇత్యుక్తే శకుంతలాయాః నేత్రే హరిణ నేత్ర సమే. అతః ఏకం కామన్ ఫ్యాక్టర్ వర్తతే ఇతి కృత్వా ఏతత్ హరిణాంగనాభిః సహ లేడీ హరిణై సహ ఏవ ఆజీవితం ఏవమేవ స్థాస్యతి వా ఇతి విచారః. ఇది వైఖానసం వ్రతం కేవలం కించిత్ కాల పర్యంతం స్వీకృతం వా నో చేత్ పితుః ఆదేశాత్ జీవన పర్యంతం స్వీకృతం వా. ఆకార వస్త్రధారణం భాష్య చిహ్నాన్ని భవంతి వ్రతే, భాష్య చిహ్నాన్ని భవంతి ఆంతర చిహ్నాన్ని భవంతి సన్యాస వ్రత కించిత్ వ్రతం తత్ వ్యా కించిత్ శృంగారాది విపరీతం నామ పుష్పాణి న ధరంతి, కేశాః సమ్యక్ సజ్జాం కేశానాం సమ్యక్ సజ్జాం న కుర్వంతి, వలకలాదికం ధరంతి కించిత్ తిలకాదికం ఆశ్రమోచితం. వైఖానస వ్రతమితి ఏకం వ్రతమితి ఆర్య ధర్మాచరణేతి పరవశోయం జన, అయం జన ధర్మాచరణేతి ధర్మస్య ఆచరణేతి పరవశయే. ఓహోహో పరవశయే, పరవశ నామ అస్మాకం హస్తే నాస్తి యథా పితా వదతి తథా వయం కుర్మః. పరంతు ఇదానీం పితా గురోః పునః అస్యాః అనురూప వరప్రదానే సంకల్పః. గురోః పునః పితుః తావత్ ఏతస్మిన్ క్షణే అస్యాః అనురూపోయో వరః తస్య వరస్య హస్తే దానమేవ సంకల్పః. ఏతావత్పర్యంతం అనురూపః వరః యదా ప్రాప్యతే తదా కస్మైచిద్ వరాయ ఏకా దాతవ్యా కన్యా ఇత్యేవ కురుః చింతయతే. పరంతు వి ఆర్ నాట్ ఎట్ లిబర్టీ ఈవెన్ టు డూ ధర్మాచరణ యథా పితా వదతి తథా వయం కుర్మః. రాజా ఆత్మగతం న దురవాపేయం ఖలు ప్రార్థన, ఇదానీం భవతః ప్రార్థన దురవాప న ప్రాప్తుం అశక్యా న పాజిబిలిటీ ఇస్ దేర్ భవ హృదయ సాభిలాషం, ఏ హృదయ సాభిలాషం భవ అభిలాష సహితం భవ కామయ. సంప్రతి సందేహ నిర్ణయో జాతః, పూర్వం మధుకరం దృష్ట్వా వయం తత్వాన్వేషాత్ మధుకర హతాః ఇత్యుక్తవాన్, ఇదానీం సందేహస్య నిశ్చయో జాతః. ఆశంకసే యదగ్ని यत् वस्तु भवान् एतत्क्षण पर्यन्तम् स्पर्शन अयोग्यम् अग्निम् चिन्तयसि स्म तदिदं स्पर्श क्षमम् रत्नम् तदिदं स्प्रष्टुम् योग्यम् रक्तवर्णम् ज्वल रत्नम् वर्तते अतः स्पर्शन योग्यम् रत्नम् वर्तते अतः भवहृदयसाभिलाषम् सम्प्रति सन्देह निर्णयो जातः आशङ्कते यदग्निम् तदिदं स्पर्शक्षमं रत्नम् अग्निः स्पर्शक्षमः न रत्नं तु स्पर्शक्षमः दूरतः कश्चन रत्नानि अग्निः इव दृश्यन्ते दूरतः दर्शनसमये शकुन्तला स्प्रष्टुम् अक्षमा इति भावना आसीत् परन्तु इदानीं सा स्पर्शनयोग्या तु वर्तते अतः अभिलाषस्य हृदय साभिलाषं भव इति अन्तः कथयति शकुन्तला अनसूये गमिष्याम्यहम् अनसूये ऐ एम् गोयिङ्ग् शकुन्तला किं निमित्तम् अनसूय किं निमित्तम् वै यु आर् गोयिङ्ग् शकुन्तला इमाम् असम्बद्धप्रलापिनीं प्रियं वदाम् आर्यायै गौतम्यै निवेदयिष्यामि यदि यदि निश्चयेन एवं कर्तुमिच्छति पूर्वमेव करणीयमासीत् सर्वं कथय सर्वस्य कथनस्य अनन्तरं वृथा प्रियं वदाम् निन्दति इमाम् इमाम् असम्बद्धप्रलापिनी यद्यदसम्बद्धं वर्तते तत्सर्वं प्रलपति न वदति परन्तु प्रलपति इमाम् आर्यायै पूज्यायै गौतम्यै एतेषां सर्वेषां केर् टेकर् एका वर्तते वृद्धमहिला गौतमी वृद्धतापसी तस्यै गौतम्यै निवेदयिष्यामि प्रियं वद अन्येषां सकाशे एवम् एवम् अपेक्षितम् अनपेक्षितं सर्वं प्रलपति इति कम्प्लेण्ट् करोमि ऐ एम् गोयिङ्ग् अनसूय कशि न युक्तम् अकृतसत्कारम् अतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम् अकृतसत्कारं सत्कार यस्य सत्कारः न कृतः तादृशम् अतिथिविशेषं परित्यज्य स्वच्छन्दतः यथेच्छं गमनं न युक्तम् आश्रमधर्मः वर्तते कोऽपि अतिथिः आगतस्य सत्कारकरणानन्तरं गन्तव्यं राजा अहो चेष्टा प्रतिरूपिका कामजनमनोवृत्ति इति सा गन्तुमुद्युक्ता खलु यदैव गन्तुमुद्युक्ता ब्यूटिफुल् श्लोकः कथं वदति यः यां कामयते तस्य चित्तं सर्वं तत्रैव संलग्नं भवति सा उत्तिष्ठति चित्तमुत्तिष्ठति सा उपविशति चित्तमुपविशति सा पश्यति चित्तं पश्यति सा धावति चित्तं धावति सा पतति चित्तं पतति इत्युक्ते अनुयास्यं मुनितनयाम् एकस्मिन् क्षणे यदा सा गन्तुं प्रवृत्ता तदा येषोऽपि एतस्य मनः अपि तस्याः पृष्ठतः गन्तुं प्रयत्नमकरोत् अनुयास्यन् ऋडन्तात् शत्रु इति वयं पठितवन्तः किरातार्जुनीये अनुयास्यन् अनुगमिष्यन् मुनितनयाम् मुनितनयाम् अनुगमिष्यन्नहं सहसा विनयेन वारितप्रकरः आत्मविनयेन मम शरीरमहं नियन्त्रितवान् शरीरं सा यदा प्रस्थिता एतदपि शरीरं क्षमतया प्रस्थातुमुद्युक्तं तथापि अहं तत् प्रसारं वारितवान् अस्मि स्थानादनुचलन्नपि यस्मिन् स्थाने उपविष्टः ततः न चलन्नपि न विचलन्नपि गत्वा प्रतिनिवृत्त इव अहम् आत्मानमनुभवामि एतत् क्षणम् एक क्षणमध्ये अहं तया सह गत्वा पुनः तया सह आगत इव आत्मानमनुभवामि इत्युक्ते अहो चेष्टा प्रतिरूपिका कामिजनमनोवृत्तिः कामिजनानां कामि ये कामिजनाः भवन्ति तेषां मनोवृत्तिः चेष्टा प्रतिरूपिता भवति चेष्टासु प्रतिबिम्बिता भवति इति वदति प्रियं वदा वदति हला न ते युक्तं गन्तुं यू कनाट् गो न ते युक्तं गन्तुं किमर्थं शकुन्तला किं निमित्तं किमर्थं न गच्छामि प्रियं वद वृक्षसेचने द्वे मे धारयसि वृक्षसेचनसमये वृक्षसेचनं यदा तिस्रः वयं कृतवत्यः तदानीं भवत्याः कृते अहं घटद्वयम् अधिकं जलं सेचितवती वृक्षसेचने द्वे मे धारयति धारयसि इस् यु ओमि धारय ध्रु धातोः ओयि ओ डब्ल्यु ऐ एन् जि अपि अर्थः वृक्षसेचनसन्दर्भे विषये द्वे घटे मे धारयति यु ओमि टु पास् you give those two parts first and then move from here. Yehi pavat. Aao. Atmanam moti swa tato gamishya. Jo ghatadvayam aniya madarsam jalam mama krute deyam jajjalam bhavati krute ahamani tavati ghatadvayam. Tari ghatadvayam mama krute bhavati aniya. Aniya dattva astrak sthapi itva gachan. Atmanam moti swa tato gamishya. Raja Bhadri Vruksha Chetana Deva Parishrantam Aprabhavatim Lakshmi. Yetavat Vrukshanam Jaladani Neva Yesa Tayara Deva Ahamanuhavani. That ailed that. Yesa ailed that. Parishrantam Yimam Aham Lakshaye Iti Samyak Vruksha Chetana Parishrama Tahitam Kanyam Girdha Shloke Varnayati Aham Nakathayani. Ataha Tad Aham Yenam Andrunam Karuni. కథమే అస్యః ఋణం వర్తతే ఖలు ఘటద్వయం తత్ ప్రత్యామ్నాయ రూపేణ అహం $2 దదామి స్వీకృతి ఏకా మోచనీయ ఇతఃపరం ఏతయా పునరపి జలం నా ఆనేతవ్యం వికాస్ ఆ ఇదానీమేవ అస్యాం దుస్థితో వర్తతే ఇతి శ్లోక అస్మాభిర్ న పఠిత రాజా ఇతి అంగుళీయకం దాతు ఇచ్చతి తత్ర రాజా అంగుళీయకం సా ఉభే శకుంతలా ప్రియం వదే అంగుళీయకస్యోపరి దుష్యంతః ఇతి నామాక్షరే పఠతః దాతుం యదా ఇచ్చతి తే పఠతః అది త్వా ముఖే వికారో జాతః హే దుష్యంతో వా ఇది అలమన్యథా సంభావ్య నో డోంట్ మిస్టేక్ అలమన్యథా సంభావ్య రాజ్య పరిగ్రహోయమితి రాజపురుషం మామ అవగచ్చ ఏష ఏతద్ అంగుళీయకం రాజ్య వర్తతే తస్య అధికారార్థం మహ్యం దత్తం అహం రాజపురుష న రాజా అన్యథా నచింతయంతు యతః ఆఫీసర్ సకాశి సీల్ భవేత్ ఐడెంటిటీ కార్డ్ భవేత్ ఐ పోలీస్ జనః ఆగత్య అరెస్ట్ కరోమి ఇత్యుక్తి వాట్ వెర్ ఇస్ యువర్ ఐడెంటిటీ ఇతి వయం పృచ్ఛామః తదర్థం నచ్యం మమ సకాశే దత్తం వర్తతే తథాపి ప్రియం వదా వదతి తేన హి నార్హతి ఏతద్ అంగుళీయకం అంగుళీ వియోగం సీ ఇస్ వెరీ క్లవర్ ఓ తర్హి ఏతద్ అంగుళీయకం భవతః అంగుళ్యాః వియోగం నార్హతి కుదా రాజ్యా భవతే అధికారార్థం దత్తా ఏతత్ అధికారార్థం దత్తం ఏతత్ అంగుళీయకం ఏతత్ భవద్భస్తే ఏవ భవేత్ అస్మభ్యం న దేయం ఆర్యస్య వచనేనైవ ఇదానీం ఏక అంద్రుణ భవాన్ ఉక్తవాన్ ఖలు ఆంద్రణ్యం ఆగతం అలా శకుంతలే మోచితాసి మోచితాసి అనుకంపిన ఆర్యేణ దయావత ఆర్యేణ అనేన పురుషేణ భవతి మోచితాసి ఇత్యుక్త్వా అథవా మహారాజేన గచ్చేదాని తర్హి వయమపి గచ్చామ జాత ఏతదంతరే సహ ఏకం శ్లోకం పఠామి ఐ లవ్ దిస్ శ్లోక వెరీ మచ్ యదా శకుంతలాం అగతం యదా శకుంతలాం పరిత్యజ్య సహ గచ్చతి తే గతే ఏతదంతరే గజః ఆగచ్చతి Because now it is over. They have to part with. So, yetadantare koti paschadvad bhagatah vadati koti vanam gajaha yete rajapurushaha murgayar samagataha chanu tena murgayakaranena bhita kakshid vanagajaha aranistam ashramam pravishtaha pravishta sarvam nasayati agachantu sarve purushaha sarve sriyaha utajam gachantu sarve purushaha agachya kimapi kurvantu iti kakshid ashrosanam karoti tari raja तरी भवती जागरूकतया भवत्यौ गच्छतम अहम तत् तत्कार्यमहम पश्यामि इति सः अपि गच्छति गच्छन् वदति गच्छति पुरः शरीरं पुरः गच्छति तां परित्यज्य इदानीं गन्तुं प्रवृत्तः शरीरं पुरः गच्छति इदानीं बहुः न शकुन्तला संयोगः यदा नास्ति तदानीम् इदानीं तु शरीरमेव अतः गच्छति पुरः शरीरम् ఇదం శరీరం పురః గచ్చతి ధావతి పశ్చా అసంస్థుతం చేత అసంస్థుతం ఏతత్ అసంస్థుతం ఇది బ్యూటిఫుల్ ప్రయోగ సంస్థుతం నామ స్థుతం నామ స్థుత్యం నామ యోగ్యం అసంస్థుతం నామ నాసి నాసి ఇది ఆంగ్లభాషాయాం యద్ వదంతి ఎగ్జాక్ట్ అసంస్థుతం ఇది వస్తుంది అసంస్థుతం ఇదం మనః అన్కంట్రోలబుల్ ఇదం మనః పశ్చాద్ధావతి कुतः शकुन्तला पश्चात् वर्तते, एषः अग्रे गच्छति। अतः शरीरम् अग्रे गच्छति, मनः पश्चात् धावति, मनः पश्चात् न गच्छति, मनः पश्चात् धावति, इदं शरीरं तु गच्छति, कथमपि गच्छति, गच्छति पुरश्चरीरं, धावति पश्चात् असंस्तुकं चेतः। उपमानं ददाति कालिदासस्य उपमासौन्दर्यम् अत्रैव। क्षीरांशुकमिव केतोः प्रतिवातं नियमानस्य, प्रतिवातं नियमानस्य वातस्य अपोजिट् डिरेक्शन् मध्ये नियमानस्य केतोः ध्वजस्य क्षीरांशुकमिव, क्षीरवस्त्रमिव। एषु दिवसेषु सिल्क् इस् नोन् फर् फ्रम् चैना, क्षीरांशुकमिव सिल्क्, सिल्क् अण्ड् क्लोत्। केतुः नाम ध्वजः, ध्वजे सिल्क् अण्ड् क्लोत् भवति। तत् सिल्क् अण्ड् क्लोत् यदा वायोः विपरीतमार्गे रथः गच्छति अथवा सैकल् गच्छति अथवा कार् गच्छति, तत्र केचन फ्लाग् स्थापयन्ति कार् अग्रभागे, तत् यद्यपि फ्याक्चुवल्ली अग्रे गच्छति केतुः, तथापि क्षीरांशुकं तु पश्चात् धावति। अण्ड् यावता वेगेन कार् अग्रे गच्छति ततो अधिकतरवेगेन तस्य वस्त्रस्य चालनं भवति, स्पीड् अधिकमस्ति। देशः स एव बिकास् यु हव् टैड् इट्, परन्तु स्पीड् इस् मोर्, यु गाट् इट्। सो प्रतिवातं नीयमानस्य अपोजिट् डिरेक्शन् मध्ये वायोः विपरीतदिशि नीयमानस्य ध्वजस्य केतुः इव क्षीरांशुकमिव, क्षीरांशुकमिव क्षीरपट्ट इव मम मनः पश्चाद्धावति, अपि च तरलितमपि भवति, अन्स्टेबल् भवति, बहु तरलितं भवति, बहु अन्स्टेबल् भवति। इत्युक्ते इदानीं दुष्यन्तस्य मनसः स्थितिः शकुन्तलां परित्यज्य गमनसमये यत् फ्लाग् यत् कार् मध्ये अग्रे स्थापयामः तस्य 200 किलोमीटर् स्पीड् मध्ये गमनसमये यथा तारल्यमनुभवति, यथा क्लेशमनुभवति, तथा क्लेशमनुभूय मनः पश्चात् धावति, शरीरं तु अग्रे गच्छत्येव। किं किमर्थम् एकः धर्माधिकारी इत्युक्तवान्, गजः अरण्ये आश्रमे आगतः, स गजः अनेन अवश्यं क्रोधं तदर्थं तु आगतः इति कृत्वा अवश्यं ड्यूटि बौण्ड् वर्तते, ड्यूटि बौण्ड् भूत्वा अग्रे गच्छति पुरःशरीरं, धावति पश्चात् संस्कृतं चेतः, क्षीरांशुकमिव चेतोः प्रतिवातं नियमानस्य ममापि शरीरं गच्छति, ममापि मनः सान् फ्रान्सिस्को मध्ये धावत्। धन्यवादः।